अथ अष्टादशः पाठः। यः कैलासगिरौ पार्वत्या सह वसति पातु वः शिवः। यं पल्लवानामन्वयं देवा बहुमन्यन्ते स जयतु। येन वीरेण सकला पृथिवी रक्षिता स परमेश्वरवर्मा नाम महाराजस्तस्मिन् वंशे बभूव। तस्य राजसिंहवर्माभिधानः पुत्रोऽभूद्येन वीर्यवता सर्वे शत्रवो जिताः। यदा स राजा भुवं भुनक्ति तदा लोकस्तुष्यति। यदि च राज्ये कश्चित् दरिद्रो भवेत् तदा तस्मै धनानि दद्यात्। यस्मात् स धर्मवान् अस्ति तस्मात् चिरं जीवतु।